ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात पर ब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः निरूपणम् आत्मनः निरूपण सन्दर्भे तत्र व्यापारः अपि संस्कारः इति कः इति विषये तत्र स्वरूपमहोदयस्य करपत्रं यदस्ति तस्य पठनं वयं कुर्वन्तः स्मः तर्हि तत्र व्यापारः नाम किम् अपि संस्कारः इति किम् इति अस्ति अतः तत्र तस्य पठनमेव अतः तत्र किञ्चित् पठितवन्तः अपि तत्र व्यापारः कः इति किं अवगतवन्तः इति मन्ये किन्तु एकवारं शीघ्रतया पठित्वा यदि अग्रे सरामः तत्र सौकर्यं भवति इति मन्ये तर्हि एकनिमिषं तत्र
प्रश्नोष्टः
वदतु महोदय
प्रथम प्रश्नः व्यापारः अपि कारणः अस्ति वा यद्यपि कारणस्य लक्षणं तस्मिन् अस्ति
कारणमस्ति कारणम् अस्ति महोदय कारणमस्ति किन्तु तत्र साक्षात् कारणम् इति अस्ति तत्र
द्वितीयप्रश्नः अनित्यकारणः व्यापारः अस्ति अस्ति वा यद्यपि उदाहरणार्थं दण्डः अस्ति दण्डः आकाशजन्यः अस्ति घटः अपि आकाशजन्यः अस्ति दण्डः आकाशजन्य वस्तोः जनकः अस्ति अतः दण्डः अपि व्यापारः अस्ति वा
तत्र अनेके स्थलेषु व्यापारः भवितुम् अर्हति महोदय किन्तु तत्र अन्यत् उदाहरणम् इदानीं मास्तु तर्हि तत्र यद् अस्माकं पुरतः यद् उदाहरणमस्ति तद् केवलं स्वीकृत्य वक्तुम् इच्छामि महोदय नो चेत् क्लेशः भवति अतः तत्र यत्र दण्डः अपि तत्र चक्रभ्रमणम् इति तस्य विषयं चिन्तयामः तदनन्तरं तत्र यत् उदाहरणम् अस्माकं पुरतः अस्ति तस्य विषये चर्चयामः अन्यस्य अन्य उदाहरणं यदस्ति तद् अन्यस्मिन् सन्दर्भे चिन्तयामः महोदय
अस्तु महोदय
अस्तु तर्हि तत्र किम् अभवत् तत्र किं किमर्थम् एतत् एकनिमिषं तत्र किमस्ति सम्यक् अस्तु इदानीं चिन्ता नास्ति इति मन्ये अस्तु अस्तु उत्तमम् अस्तु तर्हि तत्र पुनः तत्र आरम्भतः पठामः तर्हि तत्र शीघ्रतया अग्रे गन्तुं शक्नुमः तर्हि तत्र अस्तु अस्तु भगिनि एकनिमिषः इदानीं कथमस्ति तत्र
उत्तमं महोदय धन्यवादः
अस्तु भगिनि अपि तत्र अहं लिङ्क् प्रेषितवान् भगिनि
तत्र पार्श्वे अस्ति
अतः तत्र यतोहि तत्र सर्वदा स्क्रीन् मध्ये यदि न दृश्यते किन्तु अस्तु तर्हि तत्र तर्हि
अस्तु महोदय उद्घाटितं धन्यवादः
अस्तु समीचीनम् अस्तु तर्हि तत्र राजीव भगिनि आरम्भं कर्तुम् इच्छति वा
आं महोदय करोमि आरम्भतः वा जि अस्तु व्यापारः लोके माध्यमम् इति वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते कारणेन साक्षात् एकं कार्यं न जायते मध्ये कश्चन व्यापारः भवति इतोपि पठामः वा एतावत्पर्यन्तम्
किमस्ति इति तत्र केवल भूमिका किञ्चित् उक्त्वा तदनन्तरम् अग्रेपि किञ्चित् पठतु
अस्तु अत्र व्यापारः इति विषये अत्र उक्तमस्ति व्यापारः इति मध्ये विद्यमान लोके किमपि मध्ये विद्यमानविषयम् इति वयं स्वीकुर्मः कार्यम् अस्ति अनन्तरं कारणम् अस्ति सो कार्यस्य कारणस्य मध्ये एव व्यापारः भवितुम् अर्हति तद् माध्यमरूपेण कार्यं करोति कार्यस्य साधनार्थं व्यापारः साहाय्यं करोति
कार्यस्य साधनार्थं खलु
कार्यस्य साधनार्थं कार्यस्य साधनार्थं व्यापारः मध्यरूपेण कार्यं करोति. वयं किमपि कार्यस्य फलं जायते चेत् कारणं किमपि कारणम् आवश्यकता अस्ति अत्र. कारणं साक्षात् वयं कार्यं न प्राप्तुं शक्नुमः, कारणेन एव वयं कार्यस्य सारि केवलं कारणम् अथवा केवलं कारणम् अस्ति चेत् वयं कार्यं न प्राप्तुं शक्नुमः, मध्ये कश्चन व्यापारः आवश्यकः अस्ति इति.
समीचीनम्, अस्तु अग्रे.
यथा कुटारः अथवा परशुः काष्ठं, केवलं कुटारः अस्ति चेत् काष्ठं भेतुं शक्नुमः वा? नैव. तदर्थं किं कुर्मः? हस्तेन कुटारम् उन्नीय काष्ठस्य उपरि त्यजामः. तदा किं भवति? काष्ठं द्विधा विभक्तं विभक्तं भवति. तर्हि काष्ठविभजनम् इति कुटारः कारणं. व्यापारः कः इत्युक्ते उन्नयन निपातनादिक्रियाः क्रिया अपेक्षिता अस्ति. अतः मध्ये कश्चन व्यापारः भवति. अत्र क्रिया एव व्यापारः
इति. अस्तु भगिनि, किञ्चित् वदतु तर्हि.
विषयद्वयम् अस्ति अत्र. कुटारः परशुः पृथक् अस्ति, काष्ठं पृथक् अस्ति. वयं केवलं कुटारम् अस्ति चेत् काष्ठस्य भेदनं कर्तुं न शक्नुमः. सो काष्ठस्य भेदनम् इति फलम् आवश्यकः चेत् वयं काष्ठम् उपयुज्य किमपि कार्यं करणीयम्. अतः व्यापारः किमपि करणीयः अस्ति. काष्ठम् उन्नीय तस्य उपरि वयं त्यजामः चेत् एव काष्ठस्य भेदनं कर्तुं शक्नुमः. अत्र काष्ठविभजनम् इति फलमस्ति. परशुः अथवा कुटारः इति कारणं भवति. मध्ये विद्यमानव्यापारः एव व्यापारस्य द्वारा एव वयं फलस्य साधनं प्राप्तुं शक्नुमः. काष्ठभेदनम् इति फलं प्राप्तुं शक्नुमः. अत्र किम् इत्युक्ते उन्नयनम् इति एकः व्यापारः, निपातनादिक्रिया. सो एतद् व्यापारं चलति एव काष्ठस्य भेदनं भवितुम् अर्हति. व्यापारं विना काष्ठभेदनं भवितुं न अर्हति इति एव.
इति समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि तत्र सर्वेषां तत्र मनसि अस्ति इति मन्ये. तर्हि तत्र नीता भगिनी तत्र वदतु, तत्र अत्र कार्यं किं, कारणं किं, व्यापारः कः इति अत्र अस्मिन् उदाहरणे.
एतस्मिन् उदाहरणे कारणं भवति कुठारः. अत्र कार्यं किं करणीयमस्ति? तत् काष्ठस्य छेदनं, तस्य वैदिकरणम् इति. काष्ठस्य छेदनम् इति अस्माकं कार्यमस्ति. कार्यस्य कृते, कार्यस्य पूर्तता भवेत् तस्य कृते उन्नयनं वा पतनं, निपातनम् उन्नयनम् अनन्तरं निपातनं, कुठारस्य उन्नयनं कुठारस्य निपातनम्, एतादृशी क्रिया आवश्यकी अत्र. तत् क्रिया यद्भवति, क्रिया व्यापारः रूपेण आगच्छति.
हा इति समीचीनं भगिनि. हा तर्हि तत्र क्रिया व्यापारः, अस्मिन् उदाहरणे क्रियाः इति व्यापारः भवति. समीचीनं भगिनि, इति भवति. अस्तु समीचीनं भगिनि. अपि तत्र क्रिया अपि कारणमस्ति वा तत्र काष्ठविभजनं प्रति?
अत्र क्रिया काष्ठविभजनं प्रति
तदपि कारणमस्ति वा? सा अपि कारणम् इति वक्तुं शक्नुमः वा? नाम परशुः अपि, परशु कारणं समीचीनं, क्रियाः व्यापाररूपेण स्वीकृतवन्तः, किन्तु व्यापारं व्यापारः अपि कारणं भवति वा फलं प्रति?
साक्षात् कारणं तु न भवति.
नाम क्रिया नास्ति चेत् तत्र फलं न भवति खलु? तत्र कार्यकारणभावः कदा भवति? यत्र कारणं नास्ति चेत्
क्रिया न भवति तत् वयं फलं न प्राप्नुमः.
प्राप्नुमः. तर्हि तत्र क्रिया अपि तत्र कारणम् अस्ति खलु? क्रिया अपि कारणमस्ति किन्तु अत्र क्रिया तत्र कारणम् इति अनुक्त्वा तत्र अस्माकं चिन्तनं किमस्ति परशुः इति कारणम् इति अस्माकं चिन्तनं अतः तत् प्रधानकारणम् इति चिन्तयामः किन्तु तत्र व्यापारः अपि तत्र कारणम् अस्ति खलु यतोहि तत्र व्यापारः नास्ति चेत् तत्र फलं न भवति अतः
फलं न भवति
अतः क्रिया तत्र व्यापारः अपि कारणम् अस्ति किन्तु व्यापारः कारणमिति तत्र तस्य महत्त्वम् अत्र तद् अस्ति किन्तु अस्माकं मनसि स्थापितं किमस्ति परशुः इति एव प्रधानकारणम् अतः परशुः कारणम् इति चिन्तयामः मध्ये यद् आगच्छति क्रिया इत्यादि तद् व्यापारः इति चिन्तयामः किन्तु तदपि कारणं भवति फलं प्रति समीचीनं खलु भगिनि नाम तत्र कारणम् अपि कार्यं फलस्य मध्ये व्यापारः तिष्ठति व्यापारेण तत्र फलं भवति अतः व्यापारः अपि फलं प्रति कारणमस्ति खलु अस्तु समीचीनं समीचीनं भगिनि अस्तु तत्र अग्रे किञ्चित् पठतु भगिनि तत्र अन्यत् उदाहरणम्
अन्यत् उदाहरणं स्वीकुर्मः घटनिर्माणं दण्डेन घटः जायते इत्युच्यते पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत् दण्डः घटं प्रति कारणम् दण्डसत्त्वे घटसत्त्वं दण्डाभावे दण्ड अभावे घट अभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत् दण्डेन चक्रभ्रमणं क्रियते चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये तेन घटोत्पत्ति जायते तथा च चक्रभ्रमणं व्यापारः कथम् इति चेत् दण्डजन्यचक्रभ्रमणं दण्डजन्यघटजनकः च
इति अस्तु तत्र अन्तिमवाक्यं मास्तु किन्तु तस्मात् प्राक् यदस्ति किञ्चित् तस्मिन् विषये वदतु
अत्र दण्डेन घटस्य निर्माणं भवति घटस्य निर्माणम् अत्र प्रथमतः तु घटनिर्माणम् इति उदाहरणमस्ति
एकनिमिषं भगिनि तत्र ध्वनिमुद्रणं स्थापितं वा न स्थापितं वा कोऽपि स्मरति वा अस्तु हा क्षम्यतां भगिनि मम मनसि संशयः आसीत् तत्र अस्तु वदतु भगिनि
घटनिर्माणम् इति एकम् उदाहरणमस्ति घटस्य निर्माणं दण्डेन जायते अत्र घटः निर्मितिः यद्भवति घटस्य निर्मितिः यद्भवति तस्य कारणमस्ति दण्डः तत्र दण्डः घटं प्रति कारणं भवति अत्र यदा दण्डः अस्ति तदा एव घटस्य निर्माणं भवति यदा दण्डः कारणरूपेण न आगच्छति चेत् घटस्य निर्माणं न भवति
दण्डः अस्ति चेत् एव घटः भवितुम् अर्हति दण्डः नास्ति चेत् घटस्य निर्माणं न भवति अतः एव तत्र तयोः मध्ये कार्यकारणभावः अस्ति इति निश्चितं तत्र नाम यदि तत्र किमपि द्वयमस्ति एकं कार्यमस्ति अन्यत् कार्यमस्ति प्रथमकार्यम् एका तत्र पदार्थः अथवा तत्र क्रियाकर्मद्वयोः मध्ये तत्र कार्यकारणभावः कथं निश्चीयते तत्र एकमस्ति चेत् कारणमस्ति चेत् एव कार्यं भवति कारणं नास्ति चेत् कार्यं न भवति इति तत्र तादृशनिश्चयं यदि भवति चेदेव तत्र अस्तु प्रथमं कारणम् अस्ति द्वितीयं कार्यमस्ति इति वक्तुं शक्नुमः खलु अतः तत्र अग्रे
परन्तु यदा केवलं तत्र दण्डः अस्ति चेत् कार्यं भवति वा केवलं तत्र दण्ड स्वीकुर्मः चेत् तेन घटनिर्मितिः भवति वा तत् न दण्डेन चक्रभ्रमणं भवति तत् क्रिया भवति दण्डेन दण्डः इति कारणः दण्डेन कारणेन चक्रभ्रमणं भवति चक्रभ्रमणेन अनन्तरं कानि कार्याणि भवन्ति अनन्तरं घटस्य उत्पत्ति जायते
अत्र तर्हि तत्र अत्र दण्डः कारणं घटः कार्यं व्यापारः कः अत्र
व्यापारः चक्रभ्रमणम् इति व्यापारः भवति
हा तत्र तत्र अनेके क्रियाः सन्ति किन्तु वयं चक्रभ्रमणम् इति तत्र प्रतिनिधिरूपेण तत्र व्यापारः इति स्वीकृतवन्तः
नाम चक्रभ्रमणम् इति व्यापाररूपेण वयं स्वीकुर्मः चेत् यत् चक्रभ्रमणमस्ति तत् तस्य कारणं किमस्ति दण्डः अस्ति अतः चक्रभ्रमणं भवति अतः चक्रभ्रमणं दण्डजन्यम् अस्ति इति वयं स्वीकुर्मः
अस्तु भगिनि तर्हि चक्रभ्रमणं दण्डजन्यम् अस्ति समीचीनं अथवा तत्र दण्डः कारणम् इति कृत्वा तत्र दण्डजन्यं चक्रभ्रमणम् इति तत्र दण्ड इति स्थाने कारणम् अपि चक्रभ्रमणम् इति स्थाने व्यापारः इति स्थापयामश्चेत् किं भवति एतद् वाक्यम् एतत्
चक्रभ्रमणं दण्डजन्यम् इति अस्ति दण्डजन्यं चक्रभ्रमणं
हा तत्र दण्ड इति स्थाने कारणम् इति स्थापयतु तर्हि तत् पदं किं भवति दण्डजन्यं कारणं कारणम् इति स्थापयतु किं भवति पदं दण्डजन्यम् इति पदे दण्डजन्यम् इति पदे दण्डः कारणम् अस्ति खलु तर्हि दण्डजन्यं नाम कारणजन्यं कारणजन्यं किम् अस्ति चक्रभ्रमणमस्ति चक्रभ्रमणं किम् अस्ति व्यापारः अस्ति तर्हि कारणजन्यः कः अस्ति कारणजन्यः कः अस्ति व्यापारः कारणजन्यः व्यापारः व्यापारः कारणजन्यः अस्ति इति समीचीनं भगिनि इदानीं तत्र अन्तिमभागः अन्य कोऽपि करोतु इति चिन्तयामि धन्यवादः भगिनि अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र सुधा भगिनी तत्र इदानीं तत्र अन्तिमपदं स्वीकृत्य किञ्चित् वदति वा तत्र एतत् पदं
कदा आरभ्य कथम्
न केवलं तत्र कथम् इति चेत् दण्डजन्यं चक्रभ्रमणम् अपि दण्डजन्यघटजनकञ्च इति तत्र चक्रभ्रमणस्य विषये किञ्चित् उक्तं किञ्चित् विवृणति वा तत्र एतद् वाक्यम्
दण्डजन्यचक्रभ्रमणम् इति उक्तमस्ति अत्र दण्डः एव चक्रभ्रमणस्य कारणम् अतः कारणजन्यः अस्ति चक्रभ्रमणम्
चक्रभ्रमणम् इति कारणजन्यम् अस्ति तत्र दण्डः इति कारणम् अस्ति समीचीनं नाम दण्डः जनकः भवति अपि चक्रभ्रमणं जन्यम् अस्ति जन्यम् अस्ति नाम तत्र चक्रभ्रमणे जन्यता अस्ति दण्डे जनकता अस्ति अस्ति समीचीनं तर्हि तत्र चक्रभ्रमणं व्यापारः अतः तत्र दण्डजन्यं चक्रभ्रमणम् इति स्थाने यदि कारणम् इति स्थापयामः अत्र तत्र दण्ड इति स्थाने कारणम् इति स्थापयामः चक्रभ्रमणे व्यापारः इति स्थापयामः एतत् किं भवति तर्हि
कारणजन्यः व्यापारः इति भवति
कारणजन्यः व्यापारः इति भवति समीचीनं तर्हि व्यापारस्य एकं तत्र विशेषणं प्राप्तं व्यापारः कीदृशः कारणजन्यः व्यापारः कारणजन्यः अस्ति तर्हि व्यापारः कारणजन्यः अस्ति नाम कारणेन जन्यः कारणजन्यः कारणेन जन्यः इति भवति समीचीनं इदानीं तत्र इदानीम् एतत् पदम् एतदपि विशेषणम् अस्ति अतः तत्र तस्य विवरणं किञ्चित् करोतु भगिनि
दण्डजन्यघटः जनकञ्च दण्डः घटस्य प्रति घटनिर्माणं प्रति अपि कारणमस्ति अतः दण्डजन्यघटः इति अस्ति यतोहि घटे जनकता अस्ति इति कृत्वा दण्डजन्यघटजनकः इति घटे
घटे किमस्ति तत्र किं जनयति घटः जनकता अस्ति चेत् कारणम् अस्ति घटः खलु
कार्यम् अस्ति
तर्हि एतावदेव स्वीकरोतु भगिनि नाम एतद् एषः भागः दण्डजनजन्यघटः नाम तत्र घटः इति अस्ति गण्डः तत्र घटं प्रति यथा भवती उक्तवती घटं प्रति दण्डः कारणमस्ति खलु अस्ति खलु तर्हि यथा वयम् उक्तवन्तः तत्र दण्डजन्यं चक्रभ्रमणं तथैव वयं दण्डजन्यः घटः इति वक्तुं शक्नुमः खलु
वक्तुं शक्नुमः
तर्हि घटः कीदृशः दण्डजन्यः घटः अस्ति खलु इदानीं घटः घटस्य जनकः तत्र एकः जनकः तत्र दण्डः अपि कारणमस्ति किन्तु घटं प्रति अन्यत् किमपि कारणमस्ति वा
चक्रभ्रमणमपि
कारणमस्ति
कारणमस्ति
तर्हि चक्रभ्रमणं घटं प्रति कारणमस्ति तर्हि चक्रभ्रमणे जनकता अस्ति वा
चक्रभ्रमणे जनकता अस्ति
नाम घटनिर्माणं प्रति तत्र घटे या जन्यता अस्ति तया निरूपितजनकता चक्रभ्रमणे अस्ति खलु तर्हि तत्र
अत्र चक्रभ्रमणे जन्यता अस्ति द्वितीयवाक्यं स्वीकुर्मश्चेत् तत्र जनकता अस्ति
इति समीचीनं भगिनि तर्हि तत्र जनकः अस्ति चक्रभ्रमणम् अथवा जनकम् अस्ति चक्रभ्रमणं कस्य जनकम् अस्ति चक्रभ्रमणं
घटस्य
तर्हि घटस्य जनकम् अस्ति चक्रभ्रमणं खलु तर्हि घटस्य जनकः इति अपि प्रायश वक्तव्यः इति न जानामि जनकः अथवा जनकं वा तत्र चक्रभ्रमणं खलु तर्हि तत्र वयं घटजनकं चक्रभ्रमणम् इति वक्तुं शक्नुमः खलु
वक्तुं शक्नुमः
नाम षष्टितत्पुरुष घटजनकं चक्रभ्रमणं किमस्ति कीदृशमस्ति घटजनकम् अस्ति अपि पुनः तत्र घटः कीदृशः इत्युक्ते घटः
दण्डजन्यः
इति अस्ति तर्हि तत्र घटजनकं चक्रभ्रमणमस्ति किन्तु घटः अपि घटस्य अपि विशेषणम् अस्ति नाम तत्र
दण्डजन्यः
घटः अस्ति अतः तत्र चक्रभ्रमणं जनकम् अस्ति कस्य जनकं घटस्य जनकं तर्हि जनकम् अस्ति घटस्य जनकम् अस्ति दण्डजन्यघटस्य जनकम् अस्ति चक्रभ्रमणम् इति आगच्छति खलु अतः तत्र अत्र सङ्गच्छति खलु नाम विवरणं नाम चक्रभ्रमणं दण्डजन्यघटजनकम् अस्ति खलु
अस्ति
तर्हि तत्र विशेषणद्वयं जातं व्यापारस्य एकः अस्ति तत्र दण्डजन्यः अथवा व्यापारः कारणजन्यः अस्ति द्वितीयं किम् अस्ति तत्र एतस्मिन् पदे अहम् अनेकवारं लिखितवान् क्षम्यतां सर्वं अस्मिन् पदे तत्र कारणं फलम् अथवा कार्यम् अपि तत्र जनकः इति तत्र स्थापयित्वा तत्र स्थापयामश्चेत् किं भवति दण्ड इति स्थाने
कारणजन्य कार्यं
जनकं कार्यजनकं तर्हि तत्र कारणजन्यकार्यजनकम् अथवा जनकः व्यापारः अस्ति इति आगतं खलु तर्हि समीचीनं भगिनि अस्तु तर्हि धन्यवादः भगिनि तर्हि अत्र इदानीम् अग्रे तत्र अन्य कोऽपि वदेत् धन्यवादः भगिनि समीचीनं अस्तु अग्रे तत्र विमला भगिनी इदानीं किञ्चित् वदति वा भवती
आं महोदय तज्जन्यजन्यत्वे जन्यत्वे तत्र महोदय
सत्यं भगिनि तज्जन्यत्वे सति इति
तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं तज्जन्यत्वे सति इत्युक्ते कस्य
तत्र प्रायश तत्र परिच्छेदं पूर्णं पठित्वा एकवारं पठित्वा तदनन्तरं
तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम् यथा वायोः लक्षणम् अस्माभिः दृष्टं तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं केवलं रूपरहितत्वं वदामश्चेत् अतिव्याप्तिः आकाशादिषु केवलं स्पर्शवत्वं वदामश्चेत् पुनः अतिव्याप्तिः पृथिव्यादिषु अतः अत्र दलद्वयं मिलित्वा लक्षणम् इत्यनेन न अतिव्याप्तिः अनेन च दलसार्थक्यं सिद्ध्यति तर्हि व्यापारस्य लक्षणमपि तथा दलद्वयम् अपेक्षते तज्जन्यत्वं तज्जन्यजनकत्वं च इति अत्र व्यापारस्य लक्षणवाक्यम् उक्तमस्ति अपि च तस्य साधनार्थं दलद्वयम् अपेक्षितमिति उक्तमस्ति यथा वायोः लक्षणं यदा अस्माभिः पठितं तत्र अतिव्याप्तिः न भवेत् इति कृत्वा रूपरहितत्वं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति उक्तं केवलं रूपरहितत्वं स्वीकुर्मश्चेत् आकाशादिषु अतिव्याप्तिः भवेत्
आकाशे रूपं नास्ति समीचीनं
केवलं स्पर्शवत्वं वदामश्चेत् पुनः अतिव्याप्तिः भवति यतोहि पृथिव्यादिषु स्पर्शवत्वमस्ति तेन कारणेन दलद्वयं मिलित्वा लक्षणवायोः लक्षणम् उक्तं यत् रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणमिति
रूपरहितत्वमपि भवेत् स्पर्शवत्वमपि
भवेत्
अत्र नाम धलसार्थक्यं नाम
द्वयमपि अपेक्षितं द्वयमपि अपेक्षितम्
अपि तत् नास्ति चेत् दोषः भवति समीचीनम्
अत्र व्यापारस्य लक्षणे अपि दलद्वयम् अपेक्षितम् एकमस्ति तज्जन्यत्वं द्वितीयः अस्ति तज्जन्यजनकत्वं च इति
वदतु
तज्जन्यत्वमिति केन तत् इति दण्डेन जन्यः व्यापारः तज्जन्यत्वं तद् एकदलं तज्जन्यजनकत्वम् इत्युक्ते तेन व्यापारेण किम् उद्भूतम् इत्युक्ते घटनिर्माणः अभवत् तेन कारणेन व्यापारः घटस्य जनकः अस्ति तज्जन्यजनकत्वं व्यापारे अस्ति
समीचीनं भगिनि अतः तत्र धलद्वयम् अत्रापि अस्ति धलद्वयमपि तत्र अपेक्षते तत्र आवश्यकता अस्ति एकम् एव धलम् अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति अग्रे तत्र इतोपि तस्मिन् विषये पश्यामः किन्तु अतिव्याप्तिदोषः यदा भवति तदा एव तत्र धलद्वयम् अथवा धलत्रयं स्थापयामः इति अस्ति समीचीनं भगिनि अतः तत्र अत्र धलद्वयं किमस्ति तज्जन्यत्वम् इति एकं दलम् अपि द्वितीयदलम् अस्ति तज्जन्यजनकत्वम् इति यथा भवती उक्तवती नाम कारणजन्यत्वम् इति तद् इत्युक्ते कारणम् अतः कारणजन्यत्वम् इति एकं दलम् अतः तत्र कारणजन्यत्वं अत्र उदाहरणे कारणम् अस्ति दण्डः अतः दण्डजन्यत्वं दण्डजन्यम् अस्ति चक्रभ्रमणम् अतः चक्रभ्रमणे दण्डजन्यत्वम् अस्ति खलु दण्डजन्यत्वं नाम लक्षणं लक्ष्ये भवेत् खलु तत्र चक्रभ्रमणम् इति लक्ष्यं लक्ष्ये लक्षणं भवेत् चक्रभ्रमणमिति लक्ष्यं तस्मिन् लक्षणं किम् उक्तं तज्जन्यत्वं नाम दण्डजन्यत्वं नाम चक्रभ्रमणं दण्डजन्यमस्ति अतः दण्डेन जन्यमस्ति चक्रभ्रमणम् अतः दण्डजन्यत्वं चक्रभ्रमणे अस्ति इति निश्चयेन वक्तुं शक्नुमः अतः तत्र तर्हि तत्र तज्जन्यत्वं तु अस्ति चक्रभ्रमणे लक्ष्ये अस्ति अस्तु समीचीनं भगिनि हा इदानीं तत्र द्वितीयभागः अपि तत्र अस्ति अग्रे तत्र अस्य वाक्यस्य विवरणं धनद्वयं किं किम् इति अग्रे भवति धन्यवादः भगिनि समीचीनं
धन्यवादः महोदय
हा अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा इदानीम्
अस्तु महोदय तत् इति कारणं तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः तज्जन्यं तृतीया तत्पुरुषः तेन इति दण्डेन जन्यम् इति चक्रभ्रमणम् तावत् वा अग्रे पठामि वा तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति अनेन एकं विशेषणम् आगतं किन्तु द्वितीयमपि अपेक्षितं तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत् अत्र तत् इति पुनः दण्डः जन्यम् इति कार्यं फलम् अत्र घटः तर्हि तत् इति दण्डः जन्यः इति घटः तेन जन्यः तज्जन्यः तस्य जनकः व्यापारः अत्र जनकं चक्रभ्रमणं दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् आहत्य तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे तर्हि अत्र दळ सार्थक्यार्थं दळद्वयं पदद्वये अपि तज्जन्यं च तज्जनकत्वं च व्यापारे समन्वयः कर्तव्यः अनेन व्यापारस्य लक्षणम् अस्तु दळद्वयम् अस्ति तज्जन्यत्वं च तत् जन्यजनकत्वम् अपि अत्र प्रथमदळे तत् प्रथमदळे तज्जन्यत्वं तज्जन्यत्वम् इति कृते तत् इति कारणं तत् पदेन अत्र दण्डः स्वीक्रियते दण्डः इति कारणं तज्जन्यम् इति तृतीया तत्पुरुष तेन जन्यम् इति कृते दण्डेन जन्यं यः दण्डेन जन्यः अत्र दण्डेन जन्यं चक्रभ्रमणं सो तज्जन्यम् इति तेन जन्यम् इति दण्डेन जन्यम् इति चक्रभ्रमणं दळ द्वितीयदळम्
अतः तत्र चक्रभ्रमणे किम् अस्ति चक्रभ्रमणे
चक्रभ्रमणे दण्डजन्यत्वं जन्यत्वम् अस्ति
जन्यत्वम् अस्ति खलु
दण्डेन जन्यं दण्डजन्यत्वम् इति चक्रभ्रमणे
इति धर्मः तत्र अस्ति चक्रभ्रमणे अस्ति दण्डजन्यत्वम् इति धर्मः चक्रभ्रमणे
अस्ति
अतः एकं विशेषणम् आगतम् जन्यत्वम् इति
चक्रभ्रमणे अस्ति
चक्रभ्रमे अस्ति समीचीनं भगिनी
विशेषणम्
प्रथमविशेषणम् अस्ति इति वयं ज्ञातवन्तः अस्तु समीचीनं भगिनी हा अस्तु धन्यवादः
किन्तु
अग्रे अन्य कोऽपि पठेत् हा पुनः धन्यवादः भगिनी अस्तु इदानीम् अग्रे अशोक् महोदय इदानीं तत्र द्वितीयम् इति अपेक्षितं
महोदय मया पठितुं अग्रे नाश
पुष्प भगिनी नमस्कार भगिनी अस्तु 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 अग्रे भवती पठतु इदानीम् अशोक् महोदय पठेत् तदनन्तरं भवती पठतु
अस्तु महोदय किम् आरभ्य
तत्र किन्तु द्वितीयमपि अपेक्षितम् इति आरभ्य महोदय
किन्तु द्वितीयम् अपि अपेक्षितं तत् जन्यजनकत्वं अपि चक्रभ्रमणे भवेत्
महोदय तत्र हा एकवारं पठित्वा पुनः वदतु तर्हि तत्र एतावत् तत्र अनेन व्यापारस्य लक्षणम् इति तावत् पठित्वा तदनन्तरं विवृणोतु महोदय.
अस्तु महोदय. अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यं फलम्, अत्र घटः. तर्हि तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तत् जन्यः, तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणं, दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् आहत्य तत् जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे. तर्हि अत्र दलसार्थक्यार्थं दलद्वयं, पदद्वये अपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. अनेन व्यापारस्य लक्षणम्. किन्तु द्वितीय पूर्वं तज्जन्यत्वं चक्रभ्रमणे अस्ति इति
निरूपितवन्तः वयम्. इदानीं तत्र द्वितीयदलं किमर्थम् अपेक्षितम्?
यद्यपि अतिव्याप्तिदोषः भवति यदि पूर्व धर्मः एव
समीचीनं. अतः तत्र चक्रभ्रमणं दण्डजन्यम् अस्ति, किन्तु
घटः
उत्तमं महोदय. अतः तत्र घटे अपि तत्र दण्डजन्यत्वम् अस्ति. अतः केवलं दण्डजन्यत्वम् इति वदामश्चेत् अतिव्याप्तिदोषः भवति. समीचीनं महोदय. तर्हि तत्र केवलं तत्र तज्जन्यत्वम् इति वदामः, तत्र तज्जन्यत्वम् इति यदि वदामः, तत्र तज्जन्यत्वम् इति वदामः चेत् एतत्तु तत्र भ्रमणे अस्ति, चक्रभ्रमणे अस्ति, अपि घटे अपि अस्ति. तर्हि तत्र द्वयो तत्र भ्रमणे अपि अस्ति, घटे अपि अस्ति इति कृत्वा तत्र केवलं तज्जन्यत्वम् इति स्वीकुर्मः, दण्डजन्यत्वम् इति स्वीकुर्मश्चेत् अतिव्याप्तिदोषः भवति. लक्षणं लक्ष्ये अस्ति, अपि विजातीयेषु अपि अस्ति. अतः तत्र दोषः, अतिव्याप्तिदोषः भवति. अतः द्वितीयदलम् अपेक्षितम् अस्ति. समीचीनं महोदय. हा, इदानीम् अग्रे.
तत् जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. दण्डजन्यः घटः, घटजनकत्वं चक्रभ्रमणे अस्ति इति अर्थः.
अतः वाक्यशः पुनः पठतु. अत्र तत् इति पुनः किम् अस्ति?
दण्डः अस्ति, दण्डजन्यः घटः अस्ति, घटजनकत्वं चक्रभ्रमणे अस्ति इति उक्तम्.
हा, तर्हि तत्र तज्जन्यत्वम् इति तत्र लक्षणद्वयमस्ति. तज्जन्यत्वे इति एकमस्ति, तज्जन्यत्वे पुनः तज्जन्यजनकः. तत्र तज्जन्यः इत्युक्ते प्रथमभागे तज्जन्यः इत्युक्ते कः? प्रथमभागे तज्जन्यः इत्युक्ते
व्यापारः एव.
हा, अत्र व्यापारः, चक्रभ्रमणम्. किन्तु द्वितीयभागे तज्जन्यः इत्युक्ते
घटः,
घटः इति भेदः. अतः एव तत्र प्रथमवाक्ये तद् इति कारणं, द्वितीयभागे अपि तद् इत्युक्ते कारणं. किन्तु प्रथमभागे तज्जन्यः इत्युक्ते व्यापारः, चक्रभ्रमणं. तज्जन्यः इति द्वितीयभागे तत्र अस्ति घटः, साक्षात् फलं. समीचीनं महोदय. हा, अस्तु. तर्हि तत्र जन्यम् इति कार्यं, फलम् अत्र घटः. तर्हि
तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तत् जन्यः.
पुनः
रीत्या
तत्पुरुषसमासः आसीत्,
तत्पुरुषसमासः, तस्य जनकः व्यापारः. अतः तज्जन्यः घटः, तस्य जनकः व्यापारः.
अत्र अतः तत्र जनकं चक्रभ्रमणम् अस्ति.
दण्डेन जनः यः घटः, तस्य जनकं चक्रभ्रमणम् इति उक्तं
भवति. हा, अतः तत्र चक्रभ्रमणे आहत्य तज्जन्यजनकं तत्र चक्रभ्रमणं कीदृशम् अस्ति? तज्जन्यजनकम् अस्ति.
आं महोदय, अतः तज्जन्यजनकत्वं चक्रभ्रमणे अस्ति.
अस्ति, हा समीचीनं महोदय. हा इदानीं तत्र तज्जन्यजनकत्वम् इति एव वदामश्चेत् केवलं द्वितीयदलं वदामश्चेत् तत्र अतिव्याप्तिदोषः पुनः भवेत् खलु?
दण्डः अपि तज्जन्यजनकत्वं
समीचीनं हा इति भवति महोदय. समीचीनं महोदय, हा तथैव. अतः तत्र
दलद्वय आवश्यकम्
आवश्यकम् अस्ति हा इति. अतः केवलं तज्जन्यजनकम् इति वदामश्चेत् तज्जन्यजनकत्वं चक्रभ्रमणे अपि अस्ति, तज्जन्यजनकत्वं दण्डे अपि अस्ति. अतः तत्र पुनः अतिव्याप्तिदोषः भवति. अतः दलद्वयमपि भवति चेदेव केवलं लक्ष्ये एव अस्ति, अन्यत्र तत्र लक्षणद्वयं नास्ति. अतः तत्र दलसार्थक्यं वयम् एतादृशमेव एतादृशचिन्तनमेव दलसार्थक्यम् इत्युच्यते. तद्वयं कृतवन्तः. अतः तत्र दलसार्थक्यार्थं दलद्वयम् अस्ति, अपि पदद्वये अपि नाम तज्जन्यत्वं तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. वयं कृतवन्तः खलु, नाम व्यापारे
लक्षणं लक्ष्ये अस्ति इति वाक्यं समन्वयः इति तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारः इति वाक्यं समन्वयः.
हा वयं दृष्टवन्तः तत्र व्यापारे अस्ति. अतः तत्र वयं तज्जन्यत्वमपि व्यापारे अस्ति, तज्जन्यजनकत्वमपि व्यापारे अस्ति, अपि अन्यत्र कुत्रापि नास्ति. नाम द्वयमपि अन्यत्र कुत्रापि नास्ति, एकम् अस्ति किन्तु अन्यत् नास्ति. अतः तत्र केवलं लक्ष्ये एव तत्र द्वयमपि अस्ति, नाम जन्यत्वमपि अस्ति, तज्जन्यजनकत्वमपि अस्ति. अतः अनेन व्यापारस्य लक्षणं कृतमस्ति अस्माभिः. समीचीनं महोदय, उत्तमं. हा धन्यवादः महोदय. हा अस्तु, अग्रे तत्र पुष्पा भगिनी तत्र इदानीं तत्र यत् उक्तं तस्य विवरणं करोति वा? नाम तत्र लक्षणवाक्यं व्यापारस्य लक्षणं किमस्ति, कथम् इति विवृणोति वा
कुत्र अस्ति महोदय?
एतदेव तत्र तत् इति कारणम् इति आरभ्य एतदेव परिच्छेदे किम् अस्ति इति विवृणोतु.
तज्जन्यत्वं न किं
न इति तत् इति कारणम्.
ओ ओ एकनिमिष. तत् इति कारणं तत्पदेन अत्र दृष्टान्ते क्षम्यतां महोदय, too many messages coming in.
So
अस्तु
भगिनि,
तत् इति कारणं तत्पदेन अत्र दृष्टान्ते.
भगिनि तत्र भवती शृण्वन्ती आसीत् खलु एतावत्? हा तर्हि किञ्चित् विवृणोतु किम् उक्तं, नाम व्यापारः नाम किं, तत्र व्यापारस्य लक्षणवाक्यं किम् अस्ति?
लक्षणवाक्यम् एकनिमिष. तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः.
तर्हि तत्र तज्जन्यत्वम् इत्युक्ते किम् इति किञ्चित् वदति वा?
तज्जन्यत्वम् इति वदनेन दण्ड कारणं दण्डः अस्ति. अपि चक्रभ्रमणं व्यापारः अस्ति.
समीचीनं, तर्हि तत्र व्यापारचक्रभ्रमणं केन जन्यम् अस्ति?
केन जन्यं चक्रभ्रमणं? घटस्य जन्यं
न केन जन्यं, केन जन्यं नाम केन भवति तत्र कारणं, तत्र चक्रभ्रमणस्य कारणं किम्?
कारणं चक्रभ्रमणस्य कारणं
दण्डः. अतः तज्जन्यम् इत्युक्ते किम् अस्ति? तद् इत्युक्ते कारणं, कारणम् अत्र
कारणं
दण्डः. अतः तत्र तज्जन्यम् इत्युक्ते
तज्जन्यजनकं चक्र
न तज्जनकम् इति जनकमिति त्यजतु केवलं तज्जन्यत्वं
तज्जन्यं तज्जन्य जन्यं दण्डः
इति तज्जन्यम् इति दण्डः न तद् इत्युक्ते दण्डः
तद् इत्युक्ते दण्डः जन्यत्वम् इति वदनेन कारणत्वम् अस्ति
न जन्यत्वम् इति जनकत्वम् इति कारणत्वं जन्यत्वम् इति कार्यत्वं जन्यत्वं नाम कार्यत्वम् अत्र तत्र दण्डः अपि चक्रभ्रमणं तयोः मध्ये कारणकार्यभावः अस्ति वा
कार्यकारणभावः अस्ति तदेव व्यापारः
न व्यापारः तद् नास्ति अस्तु
कार्यकारणभावः
अस्ति खलु दण्डेन चक्रभ्रमणं भवति खलु तत्र अतः तत्र दण्डेन जन्यमस्ति चक्रभ्रमणं खलु दण्डेन
दण्डेन जन्यं
जन्यमस्ति जन्यमस्ति खलु तत्र अतः चक्रभ्रमणं दण्डजन्यम् इति वक्तुं शक्नुमः वा यदि तत्र वक्तुं शक्नुमः तत्र चक्रभ्रमणं दण्डजन्यं तर्हि चक्रभ्रमणे किम् अस्ति
दण्डजन्यत्वं
न दण्डजन्यत्वम् अस्ति खलु
अस्ति दण्डे दण्डे जन्यत्वम् अस्ति
न दण्डे जन्यत्वं नास्ति दण्डे जनकत्वम् अस्ति
जनकत्वम् अस्ति
चक्रभ्रमणे किम् अस्ति जन्यत्वम् अस्ति
जन्यत्वम् अस्ति
कीदृशजन्यत्वम् इत्युक्ते दण्डजन्यत्वम् अस्ति नाम दण्डेन जन्यम् अस्ति चक्रभ्रमणम् अतः दण्डजन्यत्वं चक्रभ्रमणे अस्ति समीचीनं भगिनि अतः तत्र प्रथमदलं भवती तस्य विवरणं कृतवती समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र इदानीं तत्र पुनः तत्र नरसिंहमहोदय नमस्कारः तत्र इदानीं द्वितीयदलस्य विवरणं करोति वा महोदय पुनः एकवारं तत्र सर्वेषां मनसि तत्र स्पष्टता अस्ति इति इच्छा तावदेव
आम् महोदय अत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति दलद्वयमस्ति प्रथमदले तज्जन्यत्वम् इत्युक्ते तत् इत्युक्ते दण्डः जन्यत्वम् इत्युक्ते चक्रभ्रमणं यदि प्रथमदलम् एव वयं स्वीकुर्मः चेत् तत्र तज्जन्यत्वम् इति तत्र घटे अतिव्याप्ति भवति
तत्र तज्जन्यत्वं चक्रभ्रमणम् इति उक्तवान् वा भवान्
तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति लक्षणवाक्यमस्ति
किन्तु चक्रभ्रमणं तज्जन्यत्वं वा अथवा तज्जन्यं वा चक्रभ्रमणं
तज्जन्यं तज्जन्यं
केवलं तज्जन्यं तज्जन्यं चक्रभ्रमणं
तज्जन्यं प्रथमदलं द्वितीयदलमस्ति तज्जन्यजनकत्वम् इत्युक्ते अत्र पुनः तत् इति दण्डः तज्जन्य इत्युक्ते अत्र घटः घटजनकजनकत्वं चक्रभ्रमणे भवति इदानीं दलसार्थक्यं कथं भवति इत्युक्ते तज्जन्यं केवलं वदामः चेत् तत्र घटे अतिव्याप्तिः भवति घटः अपि दण्डजन्यः अस्ति
घटे अपि किम् अस्ति
दण्डजन्यत्वम् अस्ति घटे अपि
घटे दण्डजन्यत्वम् अस्ति समीचीनं महोदय तज्जन्यत्वं नाम दण्डजन्यत्वं घटे अपि अस्ति चक्रभ्रमणे अपि अस्ति अतः अतिव्याप्तिदोषः भवति समीचीनम् इदानीं
तज्जन्यजनकत्वम् इति केवलं वदामः चेत् तर्हि तत्र दण्डः अपि कारणं भवति घटस्य कृते
तज्जन्यः इत्युक्ते कः तज्जन्यः इत्युक्ते घटं प्रति किं कारणम् अस्ति व्यापारः अपि कारणमस्ति दण्डः अपि कारणमस्ति अतः तत्र तज्जन्यजनकत्वं कुत्र कुत्र अस्ति तर्हि
तज्जन्यजनकत्वं तत्र घटे अपि अस्ति
घटे नास्ति घटे नास्ति
तज्जन्यजनकत्वं व्यापारे अस्ति
अपि
अनन्तरं
केवलं तज्जन्यजनकत्वम् इति वदामः केवलम् एतत्
केवलं व्यापारे केवलं व्यापारे भवत्या
तज्जन्यजनकत्वं केवलं द्वितीयदलं वदामश्चेत् व्यापारे
तज्जन्यजनकत्वम् इति केवलं द्वितीयजलं वदामः चेत् तर्हि तत्र व्यापारे तज्जन्यजनकत्वं इत्युक्ते तत्र तज्जन्य इत्युक्ते तत्र दण्डे अपि भवति दण्डे अपि भवति व्यापारे अपि भवति
समीचीनं महोदय हा अतः केवलं द्वितीयदलं वदामश्चेत् तज्जन्यजनकत्वं दण्डे अपि अस्ति व्यापारे अपि अस्ति अतः पुनः अतिव्याप्तिदोषः भवति अतः दलद्वयम् आवश्यकम् अस्ति
आवश्यकम् आवश्यकम्
आवश्यकम् अस्ति अस्तु समीचीनं महोदय धन्यवादः
धन्यवादः
अस्तु तत्र तर्हि तत्र अग्रे हा अग्रे तत्र किञ्चित् पठित्वा वदति वा तत्र किम् इति अस्ति तत्र
सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं चक्रभ्रमणं च घटस्य कारणं दण्डः साक्षात् घटं प्रति कारणं न भवति चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणं भवति तत्र प्रथमं किं भवति दण्डेन चक्रभ्रमणं भवति अनन्तरं चक्रभ्रमणेन घटः भवति अतः तत्र दण्डघटमध्ये चक्रभ्रमणम् इति व्यापारः भवति एकम् एकस्य कारणम् अन्यत् अन्यस्य कारणं भवति अत्र
तत्र किं वक्तुं शक्नुमः तत्र दण्डः यथा उक्तं दण्डः चक्रभ्रमणद्वारा घटं प्रति कारणं भवति नाम मध्ये चक्रभ्रमणम् अस्ति अतः तत्र साक्षात् कारणं किम् अस्ति चक्रभ्रमणं साक्षात् कारणम् अस्ति किन्तु परम्परारूपेण दण्डः अपि कारणम् अस्ति
परोक्षकारणं भवति दण्डः
हा परोक्ष अथवा तत्र इण्डिरेक्ट् इति तत्र अतः परम्परया तत्तदपि कारणं भवति साक्षात्कारणम् अपरोक्ष तत्र परोक्षकारणम् इति भवति अतः तत्र चक्रभ्रमणं कार्यमपि अस्ति कारणमपि अस्ति अतः तत् तस्मिन् जन्यत्वमपि अस्ति जनकत्वमपि अस्ति हा इति समीचीनं महोदय अस्तु अग्रे तत्र अन्य कोऽपि पठेत् तर्हि तत्र
धन्यवादः
समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र जयलक्ष्मी भगिनी अग्रे एतावत् अत्र किम् उक्तम् इत्युक्ते व्यापारः कः इति निरूपितः तत्र नाम तत्र किमर्थम् एतत् सर्वम् उक्तम् अत्र इत्युक्ते इदानीं तत्र अस्माकं विद्याधरीपुस्तके तत्र व्यापारः इति आसीत् अतः एव एतस्य विवरणम् अत्र दत्तमस्ति हा अस्तु भगिनि हा वदतु भगिनि
अत्र तज्जन्यवत्वं तत् जन्यवत्वं तज्जन्यजनकत्वम् इत्यस्य किञ्चित् अवगमनार्थं वदामि वा महोदय अत्र दलद्वयम् अस्ति तत् जन्यत्वं तज्जन्यजनकत्वं च तज्जन्यम् इत्यस्य तत् इत्यस्य दण्डः इति स्वीकुर्मः चेत् दण्डेन जन्यं चक्रभ्रमणम् इति अर्थः भवति द्वितीयदले तज्जन्यम् इत्यस्य दण्डेन जन्यम् इति एव किन्तु तत्र दण्डेन जन्यं घटः इति अर्थः भवेत् घटस्य जनकः घटस्य जनकः चक्रभ्रमणम् इति पुनः अर्थः जायते इत्युक्ते दण्डेन जन्यं चक्रभ्रमणं पुनः घटस्य जनकः च भवति इति अर्थः स्वीकुर्मः अतः चक्रभ्रमणे जन्यत्वम् अपि अस्ति जनकत्वम् अपि अस्ति इति भावः
इति सत्यं समीचीनं भगिनि हा अतः तत्र तज्जन्यत्वम् इति यदि वदामः तत्र कारणम् अपि व्यापारः एषः सम्बन्धः तत्र तस्य उल्लेखः भवति खलु अपि यदि वदामः जनकत्वम् इति वदामः तत्र एतस्य सम्बन्धस्य
कारणं
हा इति भवति नाम कार्यं प्रति व्यापारः कारणं किन्तु तत्र तज्जन्यम् इति वदामः अत्र एषः सम्बन्धः यः अस्ति तस्य सूचना भवति खलु नाम तज्जन्य इत्युक्ते नाम कारणेन जन्यः कार्यम् इति खलु. अतः जनकः जनकत्वम् इति एषः सम्बन्धः
घटस्य जनकः इत्यनेन पुनः चक्रभ्रमणम् इति एव आयाति. चक्रभ्रमणं कार्यमपि अस्ति कारणमपि अस्ति जनकः अपि अस्ति जन्यः अपि अस्ति इति भावः
इति भावः. समीचीनं भगिनि. अतः तत्र सम्बन्धत्रयम् अत्र वर्तते. त्रयोः तत्र त्रयाणमपि तत्र सूचनम् अत्र अस्ति.
चक्रभ्रमणम् इति सामान्यं कामन् भवति द्वयोः च. दन्तस्य दण्डेन जन्यम् अस्ति घटस्य जनकः अपि अस्ति.
समीचीनम्. अपि यथा भवती उक्तवती प्रथमदले जन्यः इत्युक्ते व्यापारः तज्जन्य दलद्वये तद् इत्युक्ते कारणम् एव. किन्तु जन्यः प्रथमभागे व्यापारः द्वितीयभागे जन्यः नाम कार्यम् अत्र घटः. समीचीनं भगिनि. अस्तु इदानीम् अग्रे सर्तुं शक्नुमः इति मन्ये. अस्तु भगिनि वदतु.
प्रत्यक्षसन्दर्भे तथा आरभ्य खलु. प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम्. अयं घटः इति ज्ञानं भवति फलम्. मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः. अयं घटः इति ज्ञाने चक्षुरिन्द्रियं कारणं व्यापारद्वारा. तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः. अयं घटः इति प्रत्यक्षं फलम् अस्ति. तज्जन्यत्वे सति तज्जन्यजनकः कथम् इत्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रियघटसंयोगः व्युत्पन्नः. अतः अयं संयोगः चक्षुरिन्द्रियजन्यः. चक्षुरिन्द्रियेण जायमानम् अयं घटः इति प्रत्यक्षम् अस्ति. तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम्. अतः सोऽपि मध्ये एकं कारणम् अस्ति. तथा च अयं संयोगः तत् जन्यजनकः. चक्षुरिन्द्रियेण अयं घटः इति प्रत्यक्षं जायते. तस्य जनकः अस्ति इन्द्रियसंयोगः इन्द्रियसन्निकर्षः. अत्र चक्षुरिन्द्रियघटसंयोगः इति व्यापारः. अन्यः अन्यं च उदाहरणम् अत्र दीयमानमस्ति. एकैकं वाक्यं स्वीकृत्य वदामि महोदय. प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणं. यदा वयं किमपि पश्यामः तस्मिन् सन्दर्भे इन्द्रियं कारणं भवति. अयं घटः इति ज्ञानं भवति फलं. यथा अयं घटः इति
तत्र प्रत्यक्षं नाम तत्र न्यायशास्त्रे प्रत्यक्षं नाम ज्ञानं. ज्ञानस्य नाम प्रमाणं. तत्र प्रत्यक्षम् अनुमानम् उपमानं शब्दः शाब्दबोधः इति तत्र तस्य चतुर्विधज्ञानम् अस्ति. अस्माकं प्रत्यक्षम् इति ज्ञानम् इन्द्रियैः यत् ज्ञानं प्राप्यते तदस्ति प्रत्यक्षं ज्ञानम्. अतः तत्र इन्द्रियं भवति कारणं प्रत्यक्षज्ञानं प्रति. अनुमानं प्रति इन्द्रियं कारणं साक्षात् कारणं न भवति. किन्तु प्रत्यक्षं प्रति इन्द्रियं भवति कारणम्. अस्तु अग्रे.
अतः अयं घटः इति ज्ञानं यथा भवति तत् फलं भवति. मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः. यदा अयं घटः इति ज्ञानं यदा अस्माकं मनसि भवति तदा कश्चन व्यापारः अपि तस्य मध्ये भवति इति उक्तम्.
अयं घटः इन्द्रियसन्निकर्षः इति व्यापारः.
अयं घटः इति ज्ञाने चक्षुरिन्द्रियकारणं व्यापारद्वारा. यदा अयं घटः इति ज्ञानम् अस्माकं मनसि कथं भवति इति चेत् तत्र व्यापारद्वारा एव भवति. चक्षुरिन्द्रिय एव तस्य कारणमस्ति व्यापारस्य. चक्षुरिन्द्रियं कारणमस्ति. अनेन एव अयं घटः इति ज्ञानं भवति इति.
तत्र अत्र किं किम् उक्तमस्ति तत्र ज्ञानमिति फलमस्ति.
फलमस्ति प्रत्यक्षम् इति इन्द्रियम् इति कारणमस्ति.
ज्ञानमिति फलमस्ति. अपि इन्द्रियम् इति कारणमस्ति.
व्यापारः अस्ति चक्षुरिन्द्रियकारणम्
अथवा
सन्निकर्षः इन्द्रियसन्निकर्षः इति व्यापारः
सन्निकर्षः एव व्यापारः भवति. अस्तु, सन्निकर्षः इत्युक्ते कः इति अत्र उक्तमस्ति. तत्र तत्र अग्रे
चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः. अयं घटः इति प्रत्यक्षं फलम्.
प्रत्यक्षं ज्ञानम् एव फलं. तत्र अत्र तस्य रूपं किम् इत्युक्ते अयं घटः इति ज्ञानं, तदेव प्रत्यक्षज्ञानम्. अत्र सन्निकर्षः इत्युक्ते किं? तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः. तत्र न्यायशास्त्रे इति किं चिन्तयन्ति, तत्र यदि वयं किमपि पश्यामः, तत्र घटं पश्यामः, तत्र चक्षुषा, तत्र तेजः, तत्र चक्षोः गच्छति तेजः. घटः घटं घटपर्यन्तं गत्वा पुनः आगत्य तत्र ज्ञानं जनयति. अतः एव तत्र तत्र घटः अपि तत्र चक्षुः तयोः तत्र अपि चक्षुः तत्र तेजरूप इन्द्रियं खलु चक्षुः. हा, अतः तत्र चक्षुः एव गच्छति इति चिन्तनम्. अतः चक्षुः अपि घटः तयोः संयोगः, संयोगेन एव ज्ञानं प्राप्यते. यथा वयं हस्तेन किमपि तत्र स्पृशामः, तेन तत्र पुस्तकमस्ति इति ज्ञानं तत्र भवति. तथैव तेषां चिन्तनं, तत्र पुस्तकहस्तसंयोगेन तत्र ज्ञानं भवति. अतः तथैव इन्द्रियम् अपि किमपि पदार्थः, तयोः मध्ये संयोगः भवेत्, संयोगेन ज्ञानम् उत्पद्यते इति तेषां चिन्तनम्. अत्र चक्षु इन्द्रिय अपि घटः तयोः संयोगः, तदेव सन्निकर्षः इति उच्यते. सन्निकर्षः एव अत्र व्यापारः इति फलम्. अस्तु, समीचीनं भगिनि. हा, अस्तु, अग्रे तत्र अन्य कोऽपि पठेत् तर्हि अग्रे. हा, धन्यवादः भगिनि. अस्तु, अग्रे धनश्री भगिनि, अग्रे.
आं महोदय, तज्जन्य अयं घटः इति प्रत्यक्षं फलं. तज्जन्यत्वे सति तज्जन्यजनकः कथम् इत्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रियघटसंयोगः व्युत्पन्नः, अतः अयं संयोगः चक्षुरिन्द्रियजन्यः. अग्रे पठामि.
एकं वाक्यम् अथवा एकवारं पठित्वा यदि वक्तुम् इच्छति चेदपि तदपि समीचीनम्.
चक्षुरिन्द्रियेण जायमानम् अयं घटः यत् प्रत्यक्षमस्ति, तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम्, अतः सोऽपि मध्ये एकं कारणमस्ति. तथा च अयं संयोगः तज्जन्यजनकः. चक्षुरिन्द्रियेण अयं घटः इति प्रत्यक्षं जायते, तस्य जनकः अस्ति इन्द्रियसंयोगः, इन्द्रियसन्निकर्षः. अत्र चक्षुरिन्द्रियघटसंयोगः इति व्यापारः. नाम अस्मिन् उदाहरणे कः जनकः कः जन्यः इति अत्र निरूप्यते. तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः तत् अभवत्. तज्जन्यत्वे सति तज्जन्यजनकः कथम् इत्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रियघटसंयोगः व्युत्पन्नः, अतः अयं संयोगः चक्षुरिन्द्रियजन्यः. नाम चक्षुरिन्द्रियः अस्ति संयोगः अथवा सन्निकर्षः अस्ति, अनन्तरं घटः अस्ति. अत्र चक्षुरिन्द्रियात् चक्षुरिन्द्रियसंयोगघटसंयोगः अभवत्, अतः संयोगः सन्निकर्षः यः अस्ति सः सन्निकर्षः चक्षुरिन्द्रियजन्यः अस्ति. नाम चक्षुरिन्द्रियकारणमस्ति तस्य कारणजन्य सन्निकर्षः अस्ति.
हा, नाम संयोगः तत्र चक्षुरिन्द्रियं विना न भवति. अतः
न भवति.
चक्षुरिन्द्रियं जनकः जनकमस्ति संयोगं प्रति
जन्य.
समीचीनम्. अतः तत्र संयोगे तत्र संयोगे अथवा संयोग इति सन्निकर्षः, तत्र संयोगे तत्र तज्जन्यत्वम् अस्ति वा?
तज्जन्यत्वम् अस्ति, कारणजन्यत्वम् अस्ति.
हा, कारणजन्यत्वं संयोगे अस्ति. अतः प्रथमदलं साधितं. द्वितीयतलं
चक्षुरिन्द्रियेण जायमानम् अयं घटः यत् प्रत्यक्षम् अस्ति तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम् अतः सोऽपि मध्ये एकं कारणं नाम यदन्तिमं कार्यम् अथवा फलम् अस्ति अयं घटः इति प्रत्यक्षं ज्ञानं तत् साधनार्थं मध्ये एकम् इतोपि एकं सोपानम् आवश्यकम् चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितं न अतः
चक्षुरिन्द्रियम् अस्ति अपि तत्र घटः अस्ति चेत् तत्र ज्ञानं
न भवति मध्ये संयोगः अपेक्षितमस्ति अतः संयोगः अपि इतोपि एकं कारणं नाम द्वितीयकारणं तथा च अयं संयोगः तज्जन्यजनकः अयं यः संयोगः अस्ति सः तज्जन्य नाम तज्जन्य अत्र अयं घटः इति ज्ञानमस्ति अस्य ज्ञानस्य जनकः अस्ति
संयोगः संयोगः समीचीनं तज्जन्यः इत्युक्ते अयं घटः इति ज्ञानं तज्जन्यम् अस्ति ज्ञानस्य जनकः अस्ति अत्र संयोगः अतः तत्र संयोगः संयोगे तत्र किमस्ति द्वितीयदले किमस्ति तज्जन्य
तज्जन्यजनकत्वमपि अस्ति
हा तज्जन्यजनकत्वमपि संयोगे अस्ति अतः संयोगः व्यापारः इति नामकरणं तत्र अर्हति खलु
अर्हति अर्हति
हा यतोहि धनद्वयमपि संयोगे अस्ति
चक्षुरिन्द्रियेण अयं घटः इति प्रत्यक्षं जायते तस्य जनकः अस्ति इन्द्रियसंयोगः इन्द्रियसन्निकर्षः अत्र चक्षुरिन्द्रियघटसंयोगः इति व्यापारः तदेव नाम तस्मिन् द्वयोरपि अस्ति तज्जन्यत्वं तज्जन्यजनकत्वमपि अतः सः व्यापारः
इन्द्रियव्यापारः इति वक्तुं शक्नुमः समीचीनं भगिनि हा अस्तु समीचीनं धन्यवादः हा अस्तु अग्रे तत्र प्रायशः सर्वे उक्ताः हा शुभदा भगिनि नमस्कारः अस्तु अग्रे
नमस्कारः महोदय
नमस्कारः
महोदय किञ्चित् शृणोमि महोदय अद्य
अस्तु तत्र एकं करोतु भगिनि केवलम् एकवारं पठतु अन्य कोऽपि विवृणोति
अस्तु अस्तु व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः बुद्धिः इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति अहं जानामि इति ज्ञानं ज्ञानविषयकं ज्ञानं ज्ञानस्य प्रत्यक्षं भवति मनसा एवमेव अहं सुखी अस्मि अहं सुखी अस्मि अहं दुःखी अस्मि इति सर्पम् अहं सर्पं द्वेष्मि अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा
भवती वक्तुं शक्नोति वा एतत्
प्रयत्नं करोमि महोदय प्रकृतौ आत्मनः गुणाः सन्ति ये सर्वे अत्र ये गुणाः अत्र पठिताः भवन्ति बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः इति सर्वे गुणाः आत्मनः सन्ति प्रकृतौ एव वय स्वस्य गुणाः ते सन्ति
तत्र पुस्तके तत्र विद्याधर्यं तत्र पेज् 62 मध्ये अस्ति तत्र तत्र नवगुणाः आत्मनः विशेषगुणाः इति नाम तत्र केवलं तत्र आत्मनि एव एते गुणाः भवन्ति अन्यत्र न भवन्ति आत्मा तत्र तेषाम् आधारः अस्ति नाम तत्र गुणः इत्युक्ते तत्र द्रव्यम् इति भवेत् खलु आश्रयः आत्मा एव तेषाम् आश्रयः अस्ति तत्र नवगुणाः सन्ति तेषु षड् गुणाः तत्र प्रथमषड् गुणाः बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इति तावत् तत्र किम् अस्ति
बुद्धिः आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति तत्र बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एतावत्पर्यन्तं सर्वे गुणाः प्रत्यक्षं मनसा भवति कस्यापि मनसि एते सर्वे गुणाः प्रत्यक्षरीत्या वर्तन्ते
नाम तत्र गुणः आत्मनि भवन्ति गुणः तत्र आत्मनि अस्ति इति कथं वयं जानीमः तत्र अस्माकं ज्ञानं तत्र बहिरिन्द्रियैः यदा भवति तत्र प्रत्यक्षज्ञानम् इति वदामः किन्तु आभ्यन्तर इन्द्रियं तत्र मनः आभ्यन्तर इन्द्रियम् अतः तत्र तेन इन्द्रियेण अपि यदा ज्ञानं भवति तदपि वयं प्रत्यक्षज्ञानम् इति वदामः अतः तत्र मनसा ज्ञानं तत्र बुद्धिः इत्यस्मात् तत्र सर्वं ज्ञानं तत्र तस्य प्रत्यक्षं भवति कथम् अग्रे
हा
तत् तर्हि उदाहरणं किमस्ति यद् दत्तमस्ति अहं
जानामि इति ज्ञानं ज्ञानविषयकं ज्ञानं ज्ञानस्य प्रत्यक्षं भवति मनसा
खलु तत्र वदामः तत्र ज्ञानम् इत्युक्ते अत्र बुद्धिः इत्युक्ते ज्ञानं बुद्धिः इत्युक्ते अत्र न्यायशास्त्रे बुद्धिः इति गुणः आत्मनः गुणः इत्युक्ते ज्ञानम् इति अतः तत्र ज्ञानम् अस्ति इति कथं जानीमः मनसा जानीमः मनसा प्रत्यक्षं भवति ज्ञानम् अस्ति इति मनसा प्रत्यक्षं भवति अतः अहं जानामि
इत्युक्ते कोऽपि व्यक्तिः एतद् ज्ञानम् इति अनुभूयते तस्य अनुभवः भवति
खलु नाम तत्र अहं किमपि न जानामि इति तत्र भवती न ज्ञातुं शक्नोति खलु नाम अहं जानामि इति केवलम् अहमेव तत्र तस्य अनुभवं करोमि अतः तत्र मम मनसा प्रत्यक्षं भवति अस्तु एतद् अहं जानामि इति अतः तत्र केवलं मनसा एव ज्ञानस्य प्रत्यक्षं भवति अतः तत्र बुद्धिः बुद्धिः तत्र ज्ञानविषयकं ज्ञानं तत् अस्ति
एवमेव अहं सुखी अस्मि दुःखी अस्मि अहं सर्पं द्वेष्मि अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा
खलु तर्हि तत्र बुद्धिः नाम ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एते गुणाः यदि आत्मनि भवन्ति वयं जानीमः अस्तु तत्र अस्माकं मनसि सुखम् अस्ति अथवा दुःखम् अस्ति इति वयं जानीमः खलु मनसा तत्र अस्माकं ज्ञानं भवति तत्र सुखम् इति गुणः तत्र मन आत्मनि अस्ति न वा इति खलु किन्तु तत्र षड्क्षणां मनसि प्रत्यक्षं भवति षण्णां गुणानां प्रत्यक्षं भवति इदानीं तत्र धर्मः अधर्मः संस्कारः इति तस्मिन् विषये किमपि न उक्तम् अग्रे तस्मिन् विषये उच्यते अस्तु समीचीनं भगिनि अतः
धन्यवादः
उत्तमम् अस्तु अग्रे तत्र पुनः तत्र राजीव भगिनी तत्र अग्रे किञ्चित् वदति वा तर्हि
अहं पूर्वं पठितवती
तत् किन्तु सर्वे पठितवन्तः भगिनी अतः तत्र
कुत्र आरभ्य जि
धर्मस्य अधर्मस्य इति
धर्मस्य अधर्मस्य संस्कारस्य च प्रत्यक्षं न सम्भवति एते च त्रयः गुणाः अतीन्द्रियाः मनसा साक्षात् ज्ञातुं न शक्यन्ते तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण परन्तु ते व्यापाराः भवन्ति अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः इदानीं कस्यचित् मनुष्यस्य सुखं जायते कथम् इत्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम् उत्पद्यते एवमेव तस्य आत्मनि विद्यमान अधर्मेण दुःखं जायते इति सुखस्य दुःखस्य च मध्ये व्यापारः भवति धर्मः धर्मः धर्मश्च अस्तु अस्तु क्षम्यता धर्मस्य अधर्मस्य संस्कारस्य च प्रत्यक्षं न सम्भवति वयं नव आत्मनः गुणाः नव सन्ति इति वयम् इदानीं दृष्टवन्तः तद् अन्तिमविषयाः त्रयः सन्ति
धर्मः अधर्मः संस्कारः च तेषां प्रत्यक्षं न भवति वयं मनसा तद्विषयम् अनुभोक्तुं न शक्नुमः
हा तत्र धर्मः अस्ति इति तत्र वयं न ज्ञातुं शक्नुमः
न ज्ञातुं मनसा न ज्ञातुं शक्नुमः
मनसा अपि इन्द्रिये अपि तत्र न ज्ञातुं शक्नुमः बहिरिन्द्रियैः न ज्ञातुं शक्नुमः आभ्यन्तर इन्द्रियेण अपि न ज्ञातुं शक्नुमः अतः तत्र अतीन्द्रियाः खलु
अतीन्द्रियाः इति वदामः
गुणाः एते गुणाः अतीन्द्रियाः त्रयः गुणाः
एते च त्रयः गुणाः अतीन्द्रियाः इति मनसा साक्षात् ज्ञातुं न शक्यते समानं तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेन परन्तु ते व्यापाराः भवन्ति अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः वयम् एतत् सर्वम् अनुमानेन एव एतद् भवति इति वयं निश्चयं कुर्मः परन्तु इन्द्रियैः ज्ञातुं न शक्नुमः
यथा वयं तत्र आकाशः अस्ति इति तत्र कथं कृतवन्तः अनुमानेन खलु नाम शब्दः इति अस्ति शब्दस्य तत्र श्रोत्रेन्द्रियेण तत्र शब्दस्य प्रत्यक्षं भवति इति कृत्वा तत्र तस्य आशयः हा आशयः किमपि भवेत् इति कृत्वा
आकाशस्य अस्तित्वं वयं ज्ञातुं शक्नुमः
हा तथैव अत्रापि तत्र धर्मः धर्मस्य प्रत्यक्षज्ञानं न भवति तर्हि तत्र किं प्रमाणं धर्मः अस्ति अथवा अधर्मः अस्ति एतादृशगुणः आत्मनि आत्मनः गुणः अस्ति इति कथं वदामः इति प्रश्नः भवति खलु तर्हि तत्र अस्तु तद् तस्य ज्ञानं साक्षात् ज्ञानं न भवति किन्तु ते व्यापाराः भवन्ति नाम धर्मः अपि व्यापारः अधर्मः अपि व्यापारः संस्कारः अपि व्यापारः भवति अतः तत्र नाम तेन अन्यत् किमपि जायते तेन किमपि तत्र साक्षात् फलमस्ति कारणमस्ति का फलमपि अस्ति मध्ये एते व्यापाररूपेण भवन्ति अतः फलमस्ति इति कृत्वा व्यापारः अपि भवेत् इति कृत्वा
भवेत् वयम् अनुमानं
कुर्मः अस्तु
इदानीं कस्यचित् मनुष्यस्य सुखं जायते वयं सुखम् अनुभवामः एतत् सुखम्
इदानीं प्रत्यक्षम् अस्ति खलु सुखम् इति तु प्रत्यक्षम् अस्ति खलु
प्रत्यक्षम् अस्ति मनसा वयम् अनुभोक्तुं
शक्नुमः समीचीनं
कथम् इत्युक्ते तस्य आत्मने विद्यमानधर्मेण सुखम् उत्पद्यते अस्माकं मनसि किमपि धर्मः व्यापारः चलति तद् प्रकटनं करोति सुखम् अहम् अनुभवामि इति तद् प्रकटनं करोति वयम् अनुभवामः तत्
हा सुखम् उत्पद्यते सुखस्य अनुभवं वयं कुर्मः किन्तु सुखम् उत्पद्यते सुखस्य सुखं केन उत्पद्यते धर्मरूपेण व्यापारेण सुखम् उत्पद्यते
एवमेव तस्य आत्मनि विद्यमान अधर्मेण दुःखं जायते समानरीत्या वयं दुःखमपि अनुभवामः तस्य मूलकारणम् इति वयं चिन्तयामः चेत् तत्रापि अधर्म रूपव्यापारः तत्र चलति तस्य तत् कारणात् वयं दुःखम् अनुभवामः
हा अतः तत्र सुखम् इति फलं प्रति तत्र धर्मः इति व्यापारः दुःखम् इति फलं प्रति अधर्मः इति व्यापारः व्यापारः भवति तत्र कारणम् इति तत्र प्रायशः तत्र किमपि पूर्वजन्मकार्यम् अपि अथवा अस्मिन्नेव जन्मे जन्मनि कार्यं किमपि भवेत् किन्तु मध्ये व्यापारः अस्ति व्यापारस्य नाम अस्ति धर्मः अधर्मः च इति अस्तु अतः एव तत्र व्यापारस्य विवरणम् एतावत् कृतम् अस्तु समीचीनं भगिनि हा अस्तु अग्रे तत्र उषा
भगिनी यद् वदामः तद् धर्मजन्यम् इति वक्तुं शक्नुमः किल
हा सत्यं
धर्मजन्यं सुखम् इति अधर्मजन्यं दुःखम्
इति भवति समीचीनं भगिनि हा तथैव अस्ति
धर्मत्वम् अस्ति दुःखे अधर्मत्वम् अस्ति
हा सत्यं हा तथैव अस्ति तथैव अस्ति हा अस्तु समीचीनम् अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि
अस्तु महोदय अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि स च संस्कारः कदाचित् घटम् अहं दृष्टवान् इति स्मरणं जनयति इत्थं च प्रत्यक्षज्ञानेन जायते संस्कारः अग्रे स एव व्यापारः स्मरणं जनयति अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नं वयं दृष्टवन्तः धर्मः अधर्मः इति व्यापारः भवति इति पूर्वे इदानीं संस्कारः अपि व्यापारः इति भवति संस्कारः इति व्यापारः व्यापारेण कथं जायते इति चेत् स्मरणं जायते संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं वयं चक्षुषा घटं दृश्यते चेत् अयं घटः इति ज्ञानम् उत्पन्नं भवति तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि कश्चन संस्कारः कश्चन स्मरणरूपेण वृत्ति उत्पद्यते
नाम तत्र यदि भवति तत्र भानवासरे भवति तत्र घटं पश्यति घटं पश्यति
घटं
भानुवासरे भवति घटं पश्यति तदनन्तरं सोमवासरः भवति तदनन्तरं मंगलवासरः शुक्रवासरे भवति स्मरति ओ अहं घटं दृष्टवती इति इदानीं यदा भवती स्मरति तस्मिन् सन्दर्भे तत्र घटमस्ति वा
घटं नास्ति घटं प्रत्यक्षं नास्ति अपि नास्ति अपि स्मरणं भवति
स्मरणं भवति तर्हि स्मरणं प्रति किं कारणम् अस्माकं नियमः कः
व्यापारः कारणं
न कारणकार्यभावः तत्र नाम कार्यं समानाधिकरणं भवेत् अपि कार्यस्य पूर्वक्षणे कारणं भवेत् खलु
आं महोदय कार्यस्य पूर्वक्षणं
कार्यस्य पूर्वक्षणे कार्यं कारणं भवेत् किन्तु भवती तत्र भानुवासरे भवती घटं दृष्टवती प्रत्यक्षज्ञानं भानुवासरे अभवत् तस्मिन्नेव क्षणे तत्र ज्ञानमस्ति तत्र न्यायशास्त्रे ज्ञानं क्षणिकमस्ति इदानीं घटं पश्यामः अयं घटः इति ज्ञानं तदनन्तरं वयं तत्र पुस्तकं पश्यामः इदं पुस्तकम् इति ज्ञानं तस्मिन् समये अयं घटः इति ज्ञानं नास्ति तत्र अतः तत्र किमस्ति शुक्रवासरे अहं घटं दृष्टवती इति स्मरणमस्ति किन्तु प्रत्यक्षज्ञानं तदा नास्ति तर्हि तत्र किं तत्र कारणं तु अस्ति यदि भवती घटं न दृष्टवती कथं वक्तुं शक्नोति अहं दृष्टवती अतः
दर्शनं
मध्ये व्यापारः भवेत् अतः तत्र
इति कल्पयामः कल्पयामः
अतः तत्र घटदर्शनम् इति ज्ञानं प्रति अहं घटं दृष्टवती इति ज्ञानं प्रति कारणमस्ति घटदर्शनं घटदर्शनप्रेन प्रत्यक्षज्ञानं अपि कारणं किन्तु मध्ये संस्कारः तत्र आत्मनि कोऽपि गुणः अस्ति संस्कारः संस्कारव्यापारेण संस्कारः तु तिष्ठति आत्मनि तेन व्यापारेण स्मरणं जायते अतः तत्र संस्कारः व्यापारः भवति यद्यपि प्रत्यक्षज्ञानं
यत् नास्ति
परोक्षकारणमस्ति तत्तु घटं तत्तु दूरम् अस्ति इदानीं तत् नास्ति अतः तत् प्रत्यक्षम् इति ज्ञानं प्रत्यक्षज्ञानम् इति कारणमस्ति किन्तु केवलं कारणमस्ति चेत् स्मरणं न भवति मध्ये व्यापारः अपेक्षितः सः व्यापारः एव तत्र
गुणः
भवति सः एव संस्कारः अतः तत्र संस्कारः स्मरणं जनयति अतः संस्कारस्य व्यापारत्वं प्राप्तं खलु व्यापारः व्युत्पन्नं इति
भवति
व्युत्पन्नं भवति अतः वयं जानीमः तत्र संस्कारः इति व्यापारः अस्ति तेन स्मरणं भवति इति समीचीनं भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे वदतु भगिनि
स्मरणमिति कश्चित् गुणः नास्ति आत्मनः नाम यथा सुखं दुःखम् आत्मनः गुणः अस्ति तस्य व्यापारः धर्म अधर्मः च तथा अत्र संस्कारः इति व्यापारः अस्ति परन्तु स्मरणम् इति आत्मनः
स्मरणमपि इति तत्र ज्ञानमेव अस्ति भगिनि खलु किन्तु प्रत्यक्षज्ञानं नास्ति
अनन्तरम् अनुभवम् अस्ति मनसि अनुभवं जायते ज्ञानस्य अथवा बुद्धौ बुद्धेः अनुभवं मनसि जायते सुखस्य अनुभवं मनसि जायते अत्र अनुभवम् अनन्तरं ज्ञानं भिन्नं अनुभवः भवति
तर्हि तत्र भगिनी प्रायशः तत्र न्यायशास्त्रे अनुभवम् इति नाम तत्र ज्ञानमिति एव चिन्तनम् इति मन्ये भगिनि यतोहि तत्र
ज्ञानस्य मनसा भवति इति वयं वदामः किल नाम
सत्यं
ज्ञानसुखदुःख एते षट् गुणाः सन्ति तेषाम् अनुभवः मनसा जायते
ज्ञानमेव इति चिन्तनं
ज्ञानमेव
ज्ञानमेव
ज्ञानमिति आत्मनः गुणः अस्ति तस्य अनुभवः मनसा जायते नाम तत्र भेदः अस्ति इति प्रतीयते अत्र
सत्यं सत्यं भगिनि सत्यं सत्यं भगिनि अस्तु अग्रे तर्हि तत्र एकः निमिषः एव अस्ति तत्र सुधा भगिनि अग्रे तत्र वाक्यद्वयं पठति वा एवं रीत्या
एवं रीत्या धर्मः अधर्मः संस्कारञ्च एते त्रयः गुणाः व्यापाराः भवन्ति यत् लोके माध्यमं वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति अत्र वयं दृष्टवन्तः धर्मः अधर्मः संस्कारः एते त्रयः गुणाः व्यापाराः भवन्ति धर्मः इति सुखस्य व्यापारः भवति अधर्मः सुखस्य भवति अपि च संस्कारः इति स्मरणस्य भवति इति
अस्ति भगिनि तत्र कारणम् अपि कार्यं तयोः मध्ये माध्यमरूपेण तत्र व्यापारः कार्यं करोति तत्र कार्यं जनयति इति अस्ति अस्तु तर्हि समीचीनं तर्हि तत्र सर्वं तत्र वयं कृतवन्तः अत्र तत्र केवलं प्रायशः तत्र किञ्चिदेव अस्ति भावनाट्यसंस्कारः इति तत्र वाक्यं तत्र पदमस्ति तत्र यत् पेज् 62 मध्ये तत्र भावनाट्यसंस्कारः इति नवमगुणः अस्ति आत्मनविशेषगुणः गुणेषु अतः तत्र संस्कारः नाम किम् इति वक्तव्यमासीत् अपि तत्र तथापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः एते त्रयः गुणाः नाम धर्मः अधर्मः अपि भावनाट्यसंस्कारः अतः एव तत्र करपत्रम् इदानीं केवलं संस्कारः कः इति किञ्चित् तस्य विवरणं भवति तदनन्तरं पुनः वयं विद्याधरी पुस्तकं पठामः अपि अग्रे गच्छामः तर्हि अस्तु धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः तर्हि नमस्कारः
धन्यवादः
धन्यवादः नमस्कारः